एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना विषाणो नियन्त्रणे उपचारे च संलग्नेभ्यो स्वास्थ्यकर्मीभ्यः संकटापन्न कार्यभरणं प्रदातुं सर्वे कोविड चिकित्सालयाः निर्दिष्टाः सन्ति। ह्यो मन्त्रालयस्य सचिवस्तरीयोपवेशेन संकटापन्न कार्यभरणं प्रदातुं सर्वे कोविड चिकित्सालयाः निर्दिष्टाः सन्तीति मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारी अज्ञापयत्। कोविड उनविंशतेः विरूद्धे कार्यरतानां कर्मचारिणाम् आश्विन मास पार्यन्तिकम् संकटापन्न कार्यभरणं सर्वेषु चिकित्सालयेषु प्रेषितमस्तीति हेतोः यथाशीघ्रं प्रदातुं निर्दिष्टमस्तीति मन्त्रालयेषु ज्ञापयति। मन्त्रालयेन आश्विन मासावधिकानि कोविड संक्रान्तानां जनानां उपचार व्ययेन सह संकटापन्न कार्यभरणस्य रूपेण 67 कोटयः 87 लक्षाणि 45 सहस्राणि च रूप्यकाणि चिकित्सालयेषु प्रेषितानि सन्ति। कार्तिक मासस्य संकटापन्न कार्यभरणं संक्रान्तानां जनानां उपचार व्ययस्य वित्तं च प्रेषणस्य क्रमे स्तः इति ज्ञापितं वर्तते। कोरोना विषाणुना ह्य अतिरिक्ताः 1,073 जनाः संक्रान्ताः सन्ति। ह्यो 10,000 60,400 च निदर्शनानां रियल टाइम पीसीआर विधिना परीक्षणं विहितं सत् 70,000 पुरुषाः 90,600 महिलाश्चेति कृत्वा 1,073 जनेषु संक्रमणं पुष्टिभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। संक्रान्तेषु जनेषु काष्ठमण्डपु उपत्यकायामेव 22,600 जनाः वर्तन्ते। ह्य अतिरिक्ताः 1,637 जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। ह्यस्तन दिवसावधि आराष्टं 17,737 सक्रिय संक्रान्त जनाः वर्तन्ते इति मन्त्रालयेन ज्ञापितमस्ति। कोरोना संक्रमणेन ह्यः 23 जना मृताः। नेपाले कोरोना संक्रमणेन ह्यस्तन दिवसावधि मृतानां जनानां समग्र संख्या 1,035,400 च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् अस्ति। सर्वकारेण विभिन्नेभ्यः देशेभ्यः आगतानां शरणार्थिनां कोरोना विषाणोः पीसीआर विधिना परीक्षणम् उपचारश्च निःशुल्कं विधातुं सम्बद्ध निकायाः निर्दिष्टाः वर्तन्ते। स्वास्थ्य जनसंख्या मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारिणा विभिन्नेभ्यो देशेभ्यः आगत्य नेपाले शरणार्थिनो भूत्वा निवसतानां नागरिकाणां शरणार्थी परिचय पत्रस्य आधारेण नेपाली नागरिकाणामिव कोरोना विषाणोः पीसीआर विधिना परीक्षणम् उपचारञ्च विधातुं सम्बद्ध प्रदेशाः स्थानीयस्तराः प्रयोगशालाः चिकित्सालयाश्च अनुरुद्धाः सन्ति। निजगणान्ता राष्ट्रिय विमानस्थलोच्च स्तरीय सहजीकरण समितेः उपवेशेन विमानस्थलस्य निवेशन मापदण्डस्य सम्बन्धे सप्ताहस्य अभ्यन्तरे विमृष्टुं निर्णीतं वर्तते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणः योगेश भट्टराई इत्यस्य संयोजकत्वे मन्त्रालये गतदिने उपविष्टेन निजगणान्तरा राष्ट्रिय विमानस्थलान्तर र निकाय समन्वय सहजीकरण समस्या समाधानार्थं संघटितायाः उच्चस्तरीय सहजीकरण समितेः उपवेशेन विमानस्थलस्य निर्माणाय निवेशन मापदण्डस्य सम्बन्धे अर्थ मन्त्रालये सप्ताहस्य अभ्यन्तरे विमर्शनम् आयोजयितुम् एतस्य समन्वयं नेपाल नागरिकोड्डयन प्राधिकरणेन विधातुं च दायित्वं निर्धारितं वर्तते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री योगेश भट्टराई भासते नेपालस्य उड्डयन क्षेत्रे यूरोपीय संघेन क्रियान्वितं प्रतिबन्धनं शीघ्रं निराकृतं भविष्यति। नेपाल नागरिकोड्डयन प्राधिकरणेन प्रकाशितं एतत् ख्रीष्टाब्दीयं विमानोड्डयन सुरक्षण प्रतिवेदनं सार्वजनिक कुर्वन् मन्त्री भट्टराई नेपालस्य विमान सुरक्षा स्तरः अन्येषां राष्ट्राणां तुलनायां 700 अग्रग्रामी अस्तीति हेतोः नेपालाय यूरोपीय संघेन एतत् सततम् उड्डयन प्रतिबन्धनस्य क्रियान्वयनाय किमपि कारणं नास्तीति अतर्कयत्। सभामुख अग्निप्रसाद सापकोटा भासते संघीय संसद प्रदेश सभाश्च सक्रियः जनमुखिन्यश्च विधातव्याः। संघीय संसद सचिवालयेन ह्य काष्ठमण्डपे आयोजिते संघीय संसदः प्रदेशसभायाश्च सञ्चालनस्य अनुभवादान प्रदानात्मकस्य अन्तरक्रिया कार्यक्रमस्य उद्घाटन कार्यक्रमे असौ विधिविधानानां निर्माणे जनतायाः भावना समाविष्टा सत्येव संसद सफला भवतीति धारणां व्यक्तवान्। दोलखा जनपदे निर्माणाधीनायाः बहुप्रतीक्षितायाः उपरितन तामाकोशी जलविद्युत आयोजनायाः माघमासतः सञ्चालनत्वेन कार्यं तीव्रं विद्यमानं वर्तते। राष्ट्रिय गौरवस्य आयोजनायाः रूपेण विद्यमानायाः 650+ मेगावाट मित क्षमतायाः एतस्याः आयोजनायाः आगामिनं पौषमासं यावत् परीक्षणस्य कार्यं समाप्य माघमासे सञ्चालनत्वेन कार्यं विद्यमानम् अस्तीति आयोजनेयं ज्ञापयति। भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवाङ निगदति पुष्पलाल मध्य पर्वतीय लोकमार्गेण सह मुख्यमार्गान् पूर्वाधारस्य आयोजनाश्च यथासमयं पूरयितुं सर्वकारः प्रभावकारी कार्यं चालयति। पाँचतर्वर्तिना प्रेस संगठनेन पूर्वेद्यो जनपद मुख्यालय फिदिम स्थाने आयोजिते पत्रकार सम्मेलने मन्त्री नेवाङ फिदिम क्षेत्रस्य मार्गं विस्तारयितुं वज्रीकर्तुं च फिदिम वर्तिना क्रीडा प्राङ्गणस्य स्तरम् उन्नेतुम् जनपद चिकित्सालय कृत्रिम श्वास प्रश्वासोपकरणानाम् सघनोपचार कक्षस्य प्राणवायुत्पादनोपकरण स्थापन कार्यञ्च द्रुतम् विधातुम् च निरदिशत्। राष्ट्रिय पुनर्निर्माण प्राधिकरणेन ग्रामीण क्षेत्रे नैजावासानां पुनर्निर्माण कार्यम् अन्तिमचरणे प्राप्तम् अस्तीति ज्ञापितम् वर्तते। नगरीय क्षेत्रे सीमित भूमौ निर्मितेषु गृहेषु बहुस्वामित्वस्य कारणेन समस्या सृष्टा सत्यपि ग्रामीण क्षेत्रे नैजावास पुनर्निर्माणस्य कार्यम् अन्तिमचरणे प्राप्तम् अस्तीति प्राधिकरणेन ज्ञापितम् वर्तते। अद्यावधि निर्धारित लाभग्राहिभिः तृतीय चरणस्य वित्तस्य ग्रहणाय आगामिनो वैक्रमाब्दस्य वैशाखमासम् यावत् सम्बद्ध स्थानीय स्तरे निवेदनम् प्रस्तोतव्यम् अस्तीति प्राधिकरणेन ज्ञापितम् वर्तते। पुरातत्व विभागस्य महानिर्देशकः दामोदर गौतमः अद्यावधि भूकम्पेन प्राप्त क्षतीनाम् अर्धतोऽपि अधिकानाम् संरचनानाम् पुनर्निर्माणम् सम्पन्नम् अस्ति, शेषानाम् पुनर्निर्माणम् आगामिनो वर्षद्वयस्य अभ्यन्तरे सम्पादयितुम् प्रतिबद्धताम् व्यक्तवान्। गुल्मी जनपदस्य इस्मा ग्रामपालिकायाम् ह्यः जीपयानम् दुर्घटितम् सह 6 जनाः मृताः सन्ति। दुर्घटनायाम् 5 जनाः घटनास्थले एव मृताः, एकश्च उपचारार्थम् चिकित्सालयम् नयनस्य क्रमे मार्गे मृत इति गुल्मी जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। दुर्घटनायाम् आहतस्य जनद्वयस्य गुल्मी चिकित्सालये उपचारः विद्यमानो वर्तते। 10 जनान् उड्वा इस्मा ग्रामपालिकायाः चतुर्थवडा क्षेत्रतः मुख्यालयम् तमघासम् प्रति प्रस्थितम् जीपयानम् गतिनियन्त्रोपकरणम् विफलम् सद् मार्गात् आसन 400 मीटर्मितम् अधः निपत्य दुर्घटितम् आसीत्। सर्वकारेण निर्माणाधीने गौतम बुद्धान्तरराष्ट्रिय विमानस्थले विद्युतः आपूर्तये सौर्य प्रणाली संयोज्यते। निर्माणस्य अन्तिमचरणे प्राप्ते विमानस्थले 10 मेगावाट मित क्षमताया सौर्य प्रणाली संयोज्यमानम् मानास्ति। ऊर्जोजलस्रोत सिञ्चन मन्त्रिणः वर्षमान पुनि इत्यस्य, संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा योगेश भट्टराई इत्यस्य च मध्ये ह्यः ऊर्जो मन्त्रालये वातावरणीय रूपेण अपि स्वच्छोजसः प्रयोगाय प्रोत्साहन प्रदानोद्देशेन सौर्य प्रणाल्याः संयोजनस्य विषये विमृष्टमस्ति। गण्डकी प्रदेशस्य मुख्यमन्त्री पृथ्वी सुब्बा गुरुङ गदति कोविड 19 महामार्याः मध्ये स्वास्थ्य सावधानताम् अवलम्ब्य पर्यटनम् चलायमानम् विधातव्यम्। पोखरा पर्यटन परिषद साधारण सभाम् एकादशाधिवेशनम् च ह्यः उद्घाटयन् मुख्यमन्त्री गुरुङ अवोचत् नै कोरोना विषाणो त्रासेन बद्ध्वा प्रत्युत स्वास्थ्य सावधानतम् ध्यात्वा पोखरा नगरी उन्मुक्ता सुरक्षिता च सन्देश प्रसारयितव्यः इति समाचाराः।